एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली अराजकतायाः साम्प्रदायिक विद्वेषस्य च क्रियाकलापः जायमानोऽस्तीत्यतः एवं प्रवृत्ति क्रियाकलापः रोत्स्यते इति प्रतिबद्धताम् व्यनक्ति। सशस्त्र प्रहरीबलस्य सशस्त्र प्रहरी निरीक्षकाधारभूत प्रशिक्षणस्य दीक्षान्त समारोहं पूर्वेद्युः सम्बोधयन् प्रधानमन्त्री ओली अराजकतायाः विधेः विरुद्धश्च क्रियाकलापः सफलो न भविष्यतीति प्रावोचत। प्रधानमन्त्री ओली प्राकृतिक विपदा सहितानाम् काठिन्यानाम् परिस्थितीनाम् प्रतिकारपूर्वकम् देशे शान्तिस्थापनायै प्रतिबद्धेभ्यः अधिकृत प्रहरीभ्यः शुभकामनाम् प्रायच्छत। सीमाक्षेत्रस्य सुरक्षायै सशस्त्र प्रहरीबलेन निर्व्यूढाम् भूमिकाम् प्रशंसन् प्रधानमन्त्री ओली संगठनस्य क्षमताम् वर्धयितुम् शुभकामनाम् दत्तवान्। प्रधानमन्त्री ओली सशस्त्र बलम् प्रभावकारी विधातुम् सौविध्यम् वर्धयितुम् च आवश्यक विधिनियमानाम् संशोधनाय पूर्वकार्यम् विधीयमानमस्तीति असूचयत। समारोहे गृहमन्त्री रमेश लेखकः प्रहरीबलेन राज्य प्रदत्तेन दायित्वेन सहैव आकस्मिकतया समापतितासु परिस्थितिषु व्यावसायिकीम् दक्षताम् प्रदर्श्य आत्मनः परिचयः स्थापितोऽस्तीति अभासत। नेपालीनाम् द्वितीय महतः यम पञ्चक पर्वणः अन्तर्गतम् अद्य काक पूजा वर्तते। अद्य विधिपूर्वकम् काक पूजनम् विधाय काकेभ्यः बलिरूपेण खाद्यान्यानि प्रदीयन्ते। शास्त्रेषु काकः यमदूतो मन्यते इत्यतः काक पूजनेन यमः प्रसिद्धतीति विश्वस्यते। काका हि विविध ध्वनिभिः अस्मान् शुभाशुभक सूचनानि सूचयन्ति इति जनविश्वासो वर्तते। मानव जीवनेन सह घनिष्ठ सम्बन्धम् स्थापयतः काकस्य पूजनम् मानवस्य गुणग्राहितायाः परिचयोऽस्ति। अद्यैव यमदीप प्रदानम् च वर्तते। अद्यैव धन्वन्तरि जयन्ती च। धन्वन्तरेः पूजन पुरस्सरम् सम्मान्यते। धन्वन्तरिः आयुर्वेद प्रवर्तको मन्यते। यश्च भगवतो नारायणस्य अंशावतारत्वेन समाद्रियते। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा दलस्य नेतृन् कार्यकर्तृन् च दलस्य पक्षतः निर्वाचितान् प्रतिनिधिन् च नैरन्तर्येण सहयोगोद्धार पुनस्थापनानाम् कार्यम् विधातुम् अनुरुद्धवान् अस्ति। नेपाली कांग्रेस दलस्य ललितपुर समितेः समन्वयेन सहजीकरणेन च इह ललितपुरे आयोजिते सहयोगोद्धार वितरण कार्यक्रमे सभापति देउवा विपदग्रस्तानाम् जनानाम् उद्धार कार्ये संलग्नानाम् जनानाम् दलेन उच्च मूल्यांकनम् विधास्यते इति अगदत। कार्यक्रमे नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य मोहन बहादुर बस्नेत, ललितपुरस्य दल सभापति जितेन्द्र कुमार श्रेष्ठश्च प्राकृतिक प्रकोपात जातायाम् जनधनयो क्षतौ दलेन दलात् निर्वाचित हि जनप्रतिनिधिभिश्च महत्वपूर्णा भूमिका निर्व्यूढास्तीति अभासताम्। कार्यक्रमे जल विप्लव भूस्खलनैः मृताः 47 जनाः पञ्च विलुप्ताश्चेति कृत्वा 51 जनेभ्यः प्रतिपरिवारम् 25,000 रूप्यकाणि वितीर्णानि सन्ति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ देशस्य गौरवमय इतिहासस्य संवाहकयो रेडियो नेपाल नेपाल टेलिभिजन संस्थानयो सार्वजनिक प्रसारण संस्थाया रूपेण संचालितयो सतो संस्थाद्वयेन अनेन अतिरिक्तम् परिपक्वेन क्षमतावता प्रतिस्पर्धिना च भाव्यम् इत्यत्र बलम् ददाति। नेपाल टेलिभिजन संस्थान कर्मचारी संघेन इह आयोजिते शुभकामनाया आदान प्रदान कार्यक्रमे मन्त्री गुरूङ निकट भविष्यति सार्वजनिक सेवा प्रसारण संस्थायाः संगठनम् विहितम् सदय रेडियो नेपाल नेपाल टेलिभिजन संस्थयोः कर्मचारीभ्यः अन्यायो न भविष्यति इति समस्पष्टयत। तदवसरे मन्त्री गुरूङ नेपालस्य परिचयम् अन्तर्राष्ट्रिय स्तरे प्रापयितुम् अन्तर्राष्ट्रिय स्तरस्य प्रसारण श्रव्यदृश्य प्रसारण प्रणाल्याः आवश्यकता अस्तीति अवोचत। कार्यक्रमे संचार सचिवः राधिका अरियालः रेडियो नेपाल नेपाल टेलिभिजन संस्थानयोः कर्मचारिणाम् परामर्शनस्य आधारेण एव सार्वजनिक सेवा प्रसारण संस्थायाः नियमावली निर्मास्यते इति समाश्वासयत। कार्यक्रमे रेडियो नेपालस्य कार्यकारी निर्देशकः अमरध्वज लामा राज्येन शीघ्रमेव सार्वजनिक सेवा प्रसारणस्य प्राप्तिः गौरवस्य विषयोस्तीति चर्चयन् संस्थाद्वयस्य कर्मचारिणां सुव्यवस्थापनाय बलं प्रादात्। ह्य एव नेपाल वातावरण पत्रकार समूहस्य नवनिर्वाचित कार्य समित्या सह मन्त्रालय बीते मेलने मन्त्री गुरूङ विकास निर्माणस्य समय वातावरणस्य संरक्षणेन सह बहुसंख्यक जनताया हितमपि विचारणीयमिति उदैरयत्। भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहाल निगदति प्राकृतिक विपद व्यवस्थापनार्थं वातावरणीय पक्षस्य भौगर्भिक विषयस्य च सम्यक्तया अध्ययनम् आवश्यकमस्ति। अन्तर्राष्ट्रिय विपद संकट न्यूनीकरण दिवसस्य अवसरे नेपाल भौगर्भिक समाजेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री दाहालः पूर्वाधार निर्माणात् पूर्वं क्रियमाणस्य भौगर्भिकस्य वातावरणीयस्य च अध्ययनस्य समीचीनतायाः अभावात् अधिका क्षतिप्राप्ता स्थिति उदैरयत्। अस्य वर्षस्य जलविप्लव भूस्खलनादीनाम् अध्ययनेन वसतीनां विपद व्यवस्थापनानां च सन्दर्भे ध्यानं दातुम् आवश्यकता स्थिति दृष्टं वर्तते इति असौ अगदत्। मन्त्री दाहाल अस्मिन् वर्षे प्राकृतिक विपत्सु देशस्य 49 राजमार्गाणाम् 11 स्थानेषु क्षतिः सम्भूता स्थिति असूचयत्। वृत्तिपार्जनाय कतारदेश सम्प्रेषयिष्यते इति उक्त्वा वञ्चनं विहितम् इत्यभियोगे नेपाल प्रहरिणा एकेन मलेशिया देशीय नागरिकेण सह चत्वारो जना निगृहीता सन्ति। सिराहा जनपदस्य लाहान नगरपालिकाया चतुर्थवडा क्षेत्रस्थिते एकस्मिन् अतिथिसदने सर्वकाराद् अनुमतेः ग्रहणेन विना कतारदेश सम्प्रेषयिष्यति इत्युक्त्वा अन्तर्वार्ताया ग्रहणावस्थाया समये मलेशिया देशीय नागरिकः आसन्नैक 50 मोहम्मद रिजवान बिन अब्दुल्लाह लान नगरपालिकायाः 23 क्षेत्रीय 42 रमा शंकर यादवः 25 राम भरत यादवः 49 सूर्य नारायण यादवश्च निगृहीताः वर्तन्ते। एतैः कतिपय जनेभ्यः वित्तमपि गृहीतमस्तीति ज्ञातम् अस्तीति प्रहरिणा सूचितम् वर्तते। नेपाले डेंगू संक्रमणस्य प्रकारत्रयम् सक्रियमस्तीति पुष्टिभूतम् वर्तते। डेंगू संक्रमणस्य सेरोटाइप प्रथम सेरोटाइप द्वितीय सेरोटाइप तृतीयश्चेति प्रकारत्रयस्य सक्रियता पुष्टिभूता स्थिति महामारी संक्रामक रोग नियन्त्रण महाशाखाया कीटजन्य रोगनाश शाखाया प्रमुख डा गोकर्ण प्रसाद दाहाल सूचयति। पूर्वं सेरोटाइप चतुर्थस्यापि संक्रमणं पुष्टिभूतम् आसीत् परम् इदानीम् एतेषां त्रयाणामेव संक्रमणं दृष्टमस्तीति प्रमुख डा दाहाल अज्ञापयत्। असौ कार्तिक मासानन्तरं शीतस्य वर्धनात् क्रमशः डेंगू संक्रमणमपि न्यूनीभविष्यति भविष्यति मशकाश्च तीरो भविष्यन्ति च अगदत्। इदानीं हुम्ला जनपदेन विना आराष्टं डेंगू संक्रमणं प्रसृतं वर्तते। अधुनावधि आराष्टं 27,000 अपि अधिकेषु जनेषु डेंगू संक्रमणं पुष्टिभूतं वर्तते, तेषु 11 मृताः सन्ति इति समाचारः।